सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं क्रियते. भगिनी श्लोकान् स्मारयतु.
ॐ येनाक्षरसमानायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दौता गिरा पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनीत्रय.
धन्यवादाः. धातुविज्ञानं तृतीयभागः इति विषयः प्रवर्तमानः अस्ति. धातूनां स्वरविज्ञानम् इति पाठः प्रवर्तमानः अस्ति. औपदेशिकधातुषु स्वरविज्ञानस्य आधारेण धातुः आत्मनेपदी वा परस्मैपदी वा उभयपदी वा इति स्वरविज्ञानस्य आधारेण ज्ञातुं शक्नुमः. धातुः अनुदात्तेत् चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदी धातुः भवति. इत्युक्ते आत्मनेपदसंज्ञकप्रत्ययाः तस्मात् परं विधीयन्ते. इत्युक्ते अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः परम् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. धातुः स्वरितेत् चेत् अथवा इत् चेत् उभयपदी भवति. इत्युक्ते स्वरितेभ्यः धातुभ्यः परम् इद्भ्यः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनं तादृशधातुभ्यः परं कीदृशप्रत्ययाः विहिताः भवन्ति इति प्रश्ने सति तत्र क्रियायाः फलं कर्त्रा प्राप्यते चेत् कर्ता लभ्यते चेत् तदा आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. स्वरितनितकर्तृभिप्राये क्रियाफले कर्तृभिप्राये इति उक्तमस्ति सूत्रे. क्रियायाः फलं कर्तारं प्रति गच्छति चेदेव यद्यपि धातुः उभयपदी धातुः धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति क्रियायाः फलं कर्ता प्राप्नोति चेत्. नो चेत् तस्मात् धातोः परं परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, नित् नास्ति, यित् नास्ति. कुत्रचित् उदात्तेत् भवितुमर्हति. धातुः उदात्तेत् चेत् तदा परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति शेषात् कर्तरि परस्मैपदम् इति सूत्रेण. कुत्रचित् धातुषु इति संज्ञकवर्णाः न सन्ति चेत् तत्र केवलं परस्मैपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति. इत्युक्ते धातुः उदात्तेत् चेत् परस्मैपदी धातुः शेषधातुभ्यः परं परस्मैपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति कर्तरिप्रयोगे परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. किन्तु कर्मणि प्रयोगे अथवा भावे प्रयोगे भावकर्मणोः इति सूत्रेण परस्मैपदी धातुतः आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति. वयं सर्वे जानीमः एव रामः गच्छति तत्र परस्मैपदी धातुः. गच्छति इति परस्मैपदीरूपम् अस्ति किन्तु कर्मणि प्रयोगे रामेण गम्यते, बालकः पठति, बालकेन पठ्येते. धातुः परस्मैपदी चेदपि कर्मणि प्रयोगे भावे प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति भावकर्मणोः इति सूत्रेण. प्रत्ययानां प्रसङ्गे वयम् एकं सूत्रं दृष्टवन्तः, तङ्गानाम् आत्मनेपदम्. इत्युक्ते आत्मनेपदिभ्यः धातुभ्यः परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति इति अवगन्तुं सूत्रमस्ति तङ्गानाम् आत्मनेपदम्. इत्युक्ते तङ् प्रत्ययाः अपि च आनप्रत्ययद्वयम् आत्मनेपदसंज्ञां स्वीकरोति. एतत् सर्वं वयं पठितवन्तः. अभ्यासः अपि आरब्धः. कांश्चन धातून् वयं दृष्टवन्तः. इतोपि अवशिष्टधातवः सन्ति. भ्रुञ् इति धातोः पर्यन्तं वयं समापितवन्तः. भ्वादिगणीयधातवः दत्ताः. अभ्यासं परिसमाप्य इड्व्यवस्थायाः प्रसङ्गे अवगन्तुं प्रयत्नं कुर्मः. अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः यः स्वरः अस्ति तस्य स्वरस्य आधारेण इड्व्यवस्थां ज्ञातुं शक्नुमः. इत्युक्ते अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः अनुदात्तः चेत् एकाच उपदेशे अनुदात्तात् इति सूत्रेण सः धातुः अनिट् धातुः भवति. इत्युक्ते अवशिष्टस्वरः अनुदात्तः चेत् धातोः अनिटत्वं सूचयति. अवशिष्टस्वरः स्वरितः अथवा उदात्तः चेत् तदा धातुः सेट् भवति. सेट् इत्युक्ते स इट्. इदानीम् अभ्यासं कुर्मः. अत्र द्रै इति धातुः अस्ति. उपदेशावस्थायां धातोः रूपम् अत्र दत्तमस्ति. लौकिकधातुः कः, विकरणप्रत्ययः कः, विकरणप्रत्ययसहितम् अङ्गं किं, धातोः परं कीदृशप्रत्ययः आयाति, इत्युक्ते धातुः आत्मनेपदी वा परस्मैपदी वा उभयपदी वा, एतत् सर्वं वक्तव्यं, लट्लकाररूपं वक्तव्यम्. द्रै धातुतः आरभ्य अद्य अभ्यासं कुर्मः. रोहिणी भगिनी, भवती वदतु.
भगिनी, परन्तु धातु कुत्र न दृश्यते?
करपत्रं पश्यतु. करपत्रे द्रै इति धातुः अस्ति. सत्यभामा भगिनी वदतु.
द्रै इति धातुः, द्रै इति एव लौकिकरूपम् अपि खलु? द्रै इति एव लौकिकरूपम् अपि. अत्र धातुः अस्ति किन्तु आत्मं न विद्यते.
धातुं दृष्ट्वा इति संज्ञकवर्णाः सन्ति वा? प्रथमतया धातुः कीदृशः इति वर्णयतु.
धातुः अनुदात्त स्वरवर्णः अस्ति, परन्तु धातु अनुदात्तः नास्ति, स्वरम् एव अनुदात्तः.
कथं वक्तव्यम्? एकवारम् अहम् उक्त्वा दर्शयामि. अत्र पश्यन्तु, धातुः द्रै अस्ति. अस्मिन् धातौ दकारः, रेफः, ऐकारः अस्ति. ऐकारस्य अधोभागे रेखा अस्ति. अनुदात्तः ऐकारः अस्ति, किन्तु अस्मिन् धातौ इतिसंज्ञकवर्णाः न सन्ति. अत्र चन्द्रबिन्दुचिह्नं नास्ति. यद्यपि ऐकारः अनुदात्तः, तथापि ऐकारः अनुनासिकः नास्ति, इतिसंज्ञकः नास्ति. इत्युक्ते अस्मिन् धातौ इतिसंज्ञकवर्णाः न सन्ति. चन्द्रबिन्दुचिह्नं नास्ति इति कारणतः अतः ऐकारस्य लोपः न भवति. ऐकारः यथावत् तिष्ठति. धातुः अनुदात्तेत् नास्ति. यद्यपि अनुदात्तचिह्नम् अस्ति, किन्तु ऐकारः अनुदात्त ऐकारः अस्ति चेदपि इतिसंज्ञकवर्णः नास्ति इति कारणतः धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, उदात्तेत् अपि नास्ति. इत्युक्ते अत्र इतिसंज्ञकवर्णः एव नास्ति. इत्युक्ते अत्र स्थितः ऐकारः यथावत् तिष्ठति. अस्मिन् धातौ इतिसंज्ञकवर्णाः न सन्ति. इदानीं वदतु सत्यभामा भगिनी, वदतु.
इदानीं अनुदात्तः अपि नास्ति, स्वरितः अपि नास्ति. अत्र धातुः साक्षात् दत्तमस्ति त्रैः इति. शपः इदानीं किं वक्तव्यं?
धातुः किं पदी भवति?
परस्मैपदी.
केन सूत्रेण?
शेषात् कर्तरि परस्मैपदम्.
उत्तमम्. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण. अत्र आत्मनेपदी भवितुं निमित्तं नास्ति. ऐकारः अनुदात्तः एव, किन्तु धातुः अनुदात्तेत् नास्ति खलु?
नास्ति.
स्वरवर्णः अनुदात्तस्वरवर्णः. ऐकारः अनुदात्तस्वरवर्णः अस्ति. तस्य प्राधान्यं भिन्नम्. इत्युक्ते तेन इड् व्यवस्था ज्ञायते. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः भवति. इत्युक्ते अस्मात् धातोः परं परस्मैपदसंज्ञकप्रत्ययाः एव आयान्ति इति मुख्यवार्ता. लट्लकाररूपं साधयतु.
द्रै योगः विकरणप्रत्यय शप् आयाति. अत्र सो शप् अत्र आकारः शपः, अत्र अनुबन्धलोपानन्तरम् आकारः अवशिष्यते. द्रै योगः आ. इदानीं द्रै इत्यत्र ऐकारः द् दकारः रेफः ऐकारः अस्ति. अत्र ऐकारः प्लस् आकारः अयादेशः भवति एचोयवायवः इति सूत्रेण.
ऐ आदेशः भवति वा आय् आदेशः?
आय् ऐकारः अस्ति, अतः आय् आदेशः भवति.
धातुः ऐकारान्तधातुः, एजन्तधातुः. वयं पूर्वं पठितवन्तः गै, गै धातुः इव अत्र द्रै इति धातुः दत्तमस्ति. ऐकारः इक् प्रत्याहारस्थवर्णः नास्ति. इक् प्रत्याहारे ऐकारः अन्तर्भूतः नास्ति इति कारणतः अत्र गुणकार्यं न भवति, अत्र अङ्गकार्यं नास्ति, केवलं सन्धिकार्यमेव भवति, वदतु.
अतः सन्धिकार्यमेव भवति. इदानीं यचोयवायावः इति सूत्रेण आय् आदेशः भवति. आयोगः द्रायति इति लटिरूपं भवति.
ऐकारस्य स्थाने यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा आय् आदेशः भवति. तेन द्र योगः आय् योगः अकारः शप् इत्यस्मात् अकारः आगतः. परस्मैपदी धातुः अस्ति इति अस्माभिः ज्ञातमेव. तदर्थं तिप्रत्ययं योजयामः. तेन द्रायति इति रूपं सिद्ध्यति. लटिरूपं द्रायति अस्ति. अत्र वार्ता का? अत्र अङ्गकार्यं नास्ति, केवलं सन्धिकार्यमेव. इक् प्रत्याहारस्य वर्णः नास्ति इति कारणतः गुणकार्यस्य प्रसङ्गः अत्र नास्ति. अपि च अस्मिन् धातौ अनुबन्धवर्णाः न सन्ति. अत्र अनुदात्त ऐकारः अस्ति. अनुदात्त ऐकारस्य आधारेण इड् व्यवस्थां ज्ञातुं शक्नुमः. इत्युक्ते ऐकारः अनुदात्तः अस्ति इति कारणतः अयं धातुः अनिट् इत्युक्ते तिङन्तरूपेषु कृदन्तरूपेषु इडागमः न भवति आर्धधातुकप्रक्रियायां. साधु भगिनि, इदानीं वदतु.
इटन् इटन् धातुः अस्ति. अत्र टकारोत्तरवर्ति अकारः अनुनासिकः अस्ति. तस्य अत्र इत्संज्ञा भवति. इट् लौकिकधातुः भवति. अत्र इकारः इक् अस्ति. अत्र भवादिगणे अस्ति इट् योग शप् योग ति. अत्र धातुः अनुदात्ते तु नास्ति, स्वरिते तु नास्ति, उदात्ते अस्ति. अतः परस्मैपदी अस्ति. इट् योग शप् योग ते. अत्र इकारस्य गुणकार्यं भवति. एट् एट् योग शप् शकारोपकारयोः इत्संज्ञा भवति. तस्य लोपः अस्ति. इट् गुणकार्यम् अस्ति. एट् भवति. एट् योग अ योग ति. सन्धिकार्यं भवति चेत् एटति भवति परस्मैपदी.
महोदय, अत्र सन्धिकार्यम् अस्ति वा?
प्रथम तु गुणकार्यम् अस्ति. तदनन्तरम् एट् योग अ योगति एटति.
वर्णमेलनेन.
आम्, वर्णमेलनेन, सन्धिना वर्णमेलनेन.
उत्तमम्. अत्र टकारोत्तरवर्ति अकारः अस्ति. सः अकारः अनुनासिकः अकारः. अतः उपदेशे जुनुनासिक इत् इत्यनेन तस्य इत् संज्ञा भवति. अपि च तस्य लोपः इत्यनेन लोपः भवति. अनुबन्धवर्णानां निष्कासनानन्तरम् अत्र इट् इति लौकिकधातुः अस्ति. यथा महोदयेन उक्तं, धातुः उदात्तेत् धातुः. इत्युक्ते अत्र अनुनासिकस्वरवर्णः अकारः अस्ति. तत्र चिह्नानि न सन्ति. चिह्नानि न सन्ति इति कारणतः अयम् अकारः उदात्त अकारः. उदात्त अकारस्य इति संज्ञा अभवत् अस्मिन् धातौ. अतः धातुः उदात्तेत् धातुः. धातुः उदात्तेत् चेत् परस्मैपदी भवति इति मुख्या वार्ता. अत्र लौकिकधातुः इट् अस्ति. अधोभागे इडागमः इति पश्यामः. तत्र इट् आगमः सन्धिकार्यं कृत्वा वदामश्चेत् जस्त्वसन्धिः भूत्वा तत्र टकारस्य स्थाने डकारः आयाति. झलां जशोन्ते इति सूत्रेण इट् इत्यस्य टकारस्य स्थाने डकारः आयाति. किमर्थं चेत् तत्र इट् इति पदमस्ति. पदमस्ति चेदेव पदान्तटकारस्य स्थाने एव डकारादेशः भवति जलां जशोन्ते इति सूत्रेण जस्त्वसन्धिः भूत्वा इट् इड् भवति किन्तु अत्र तथा न भवति अत्र केवलं धातुः एव अत्र पदसंज्ञा नास्ति इत्युक्ते धातोः परं तिङ्प्रत्ययः इदानीं पर्यन्तं न आगतम् इट् इति केवलं धातोः रूपमेव पदसंज्ञा अस्ति चेदेव जस्त्वसन्धिः भूत्वा इट् इत्यस्य स्थाने इड् इति आयाति अपि च अत्र धातोः वर्णनं कर्तुमिच्छामश्चेत् इट् इति कथनेन धातुः हलन्तधातुः अपि च उपधायां ह्रस्व इकारः अस्ति उपधायां लघु इकवर्णः अस्ति भवादिगणे कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति शप् इत्यस्मात् आकारः अवशिष्टः अपि च शप् इत्यस्मिन् षित्वमस्ति पित्वमपि अस्ति अतः गुणकार्यं भवितुं शक्नोति अत्र भुगन्तलघूपधस्य च सूत्रेण इट् इत्यस्मिन् अङ्गे अङ्गकार्यं गुणकार्यं भूत्वा एट् भवति एट् योगः अयोगः ति किमर्थं ति इत्युक्ते धातुः उदात्तेत् धातुः अतः परस्मैपदसंज्ञकप्रत्ययः एव तस्मात् परम् आयाति अतः लट्लकाररूपम् एटति तिङ्प्रत्ययस्य कृते अङ्गं किम् एट शप्रत्ययस्य कृते धातुः इट् एव अङ्गं भवति अग्रिमधातोः प्रसङ्गे अपि भवान् एव वदतु महोदय
प्रश्नः यदा एतत् इट् इति वाक्यं वयं प्रयोगं कर्ता कुर्मः चेत् एटति इति एव भवति खलु इटति न भवति
एटति भवति लटीरूपम् एटति
अस्य अर्थः कः धातुपाठे गतौ इति एव दत्तमस्ति
गत्यर्थकधातुः गत्यर्थकाः बहवः धातवः सन्ति
बहूनि अर्थ अवगन्तुं शक्यते वा एतत् प्रयुज्य एटति इति यदा आगच्छति तत्र कथं ज्ञातुं शक्यते इति मम प्रश्नः कस्मिन् अर्थे तत्र अस्ति इति सन्दर्भं दृष्ट्वा एव वक्तुं शक्यते वा
वाक्यप्रयोक्तव्यं वा कोऽपि वदतु गत्यर्थकधातुः इति मया दृष्टं
कुत्रापि न दृष्टवती
पश्चात् अहं प्रेषयामि भगिनि कानिचन वाक्यानि लिखित्वा प्रेषयामि झटिति वक्तुं शक्नोति चेत् कोऽपि वदतु वाक्यप्रयोक्तव्यं नरेश महोदय भवान् वदतु
मृद्रो अत्र मृद्रम् अन्तिम रकारः अनुनासिकः अस्ति अपि च स्वरितः अस्ति स्वरि अतः तस्य इत्संज्ञा भवति एतद् धातु स्वरित्येत् अस्ति स्वरित्येत् अस्ति चेत् उभयपदी अस्ति लौकिकधातु मिद् अस्ति मिद् अस्ति तत्र फुगन्तलघुपदस्य सूत्रेण मिद् मेद् मेद् भवति अत्र मेद् योग शप् योग ति अस्ति अपि च ते अस्ति मिद् योग शप् शकारपकारयोः इत्संज्ञा भवति अकारः तिष्ठति मेद् योग अयोग ति अथवा ते मे मेदति मेदते भवति
उभयपदी धातुः खलु इतोपि वदतु उभयपदी अस्ति किन्तु कदा आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति तादृशरीत्या वर्णयतु
आत्मनेपदी भवति यदि कर्तरर्थके कर्तरर्थे फलं भवति क्रियापदं फलं यदि कर्तरर्थे भवति तदा आत्मनेपदी अस्ति यदि क्रियाफलं कर्तरर्थे न भवति तदा परस्मैपदी अस्ति अत्र तु उभयपदी अस्ति अतः मेदति अपि मेदते अपि अस्ति
उत्तमं महोदय तदेव अत्र अनुनासिकरूकारः अस्ति मिद्रु इत्यत्र अनुनासिकरुकारः इत् संज्ञकः, अतः उपदेशजिन्नासिक इति इत्यनेन ऋकारस्य इति संज्ञा भवति, अपि च उपरि स्वरितरेखा अस्ति इत्युक्ते धातुः स्वरितेत् धातुः स्वरितस्वरवर्णस्य इति संज्ञा भवति अस्मिन् धातौ, अतः धातुः स्वरितेत् स्वरितेत् चेत् स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण उभयपदी भवति। धातुः लघुपदधातुः, उपधायां लघु इक् वर्णः अस्ति, उपधायां लघु इकारः अस्ति। मिद् इत्यत्र दकारात् पूर्वम् उपधायां लघु इक् वर्णः ह्रस्व इकारः अस्ति, तस्य गुणः भूत्वा मिद् मेद् भवति, मेद् योगः आयोगः ति मेदति इति रूपं भवति भ्वादिगणीयधातुः। साधु महोदय, धातुः स्वरितेत् इति स्मर्तव्यः अंशः, स्वरितेत् अस्ति इति कारणतः उभयपदी भवति, अतः एव मेदति एकं रूपं मेदते इति अन्यत् रूपम् अस्ति। अत्र मकारोत्तरवर्ति इकारः अपि अस्ति, मकारोत्तरवर्ति इकारः एव अवशिष्टस्वरः, तत्र किमपि चिह्नं नास्ति, अतः धातुः सेट् अस्ति। अवशिष्टस्वरस्य अधोभागे अनुदात्तचिह्नम् अस्ति चेत् धातुः अनिट् भवति, किन्तु अत्र तादृशचिह्नं नास्ति, अतः धातुः सेट्। उत्तमम्, अग्रे केतकी भगिनी भवती करोतु।
जीषु भवादिगणे अस्ति सोचने, उकार अनुनासिक इति संज्ञा भवति, तस्य लोप भवति, उपदेश अनुनासिक इति जिष धातु भवति, कोऽपि चिह्नः न अस्ति
अत्र, जिष जिष् तत्र द्वयोर्मध्ये भेदः अस्ति खलु, जिष् भिन्नं जिष भिन्नं खलु, जिष इति कथनेन तत्र अकारः श्रूयते, अत्र यः अनुनासिक उकारः अस्ति सः अनुनासिक उकारः अपगतः, अनुनासिक उकारः उपदेशजिन्नासिक इत्यनेन अपगच्छति, तत्र लौकिकधातोः रूपं कथं भवेत्?
जिष् भवति, कोऽपि चिह्नः न अस्ति, उदात्तः अस्ति, शेषात् कर्तरि परस्मैपदे उदात्त भवति, अविष्ट एका च स्वरः इकारः उदात्तः अस्ति, धातु सेत् अस्ति, एकः स्वरः अस्ति अनुदात्त अनिट् भवति, भवादिगणे अस्ति तो शपायति
शपायति। धातोः वर्णनं करोतु इतोपि।
जिष् धातु भवादिगणे अस्ति, तस्य शप विकरणप्रत्ययः आयति, शकारपकार लोप भवति, शकारस्य लोप भवति लशकद्वत्तिदेने, अनि हलन्त्य च लोप पकारस्य लोप भवति हलन्त्य सूत्रेण, अविशिष्यते, जिष योग अ योग ति, तिङ्ग सार्वधातुक धातु अस्ति, स तिङ्गशित सार्वधातुक तस्य ति भवति, गुण भवति सार्वधातुक अर्धधातुक अस्ति तस्य गुण भवति जिष जिष ति। नन्तरं
भगिनी भवती अवगतवती, किन्तु वदनावसरे किञ्चित् सौलभ्यं नास्ति इति भाति, सत्यभामा भगिनी भवती विवृणोतु, सूत्राणां साहाय्येन विवृणोतु।
जिषु अत्र प्रथमम् अनुनासिक उकारः अस्ति, उपदेशे अच्छ अनुनासिक इति सूत्रेण तस्य युत्संज्ञा भवति, तदनन्तरं उपरि अथवा अधोभागे रेखा नास्ति, अधः उदात्तधातुः अस्ति, उदात्त एक् अस्ति, अधः शेषात् परस्मै शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदं भवति, भुआदिगणे अस्ति इति कारणात् शपः विधीयते, अनुबन्धलोपानन्तरम् अकारः अवशिष्यते, इदानीं जिष् इति अङ्गं जिष् योगः आयोगः ति गुणकार्यं भवति, यतोहि उपधायाम् इक् वर्णः अस्ति, पुगन्धलघु उपदस्य इति सूत्रेण गुणः भवति, अतः जिष् इत्यत्र जेष् इति आगच्छति, जेष् योगः आयोगः ति जेषति लटिरूपम्।
उत्तमम्,
भगिनि अहं विस्मरति पुगन्तलघुपदस्य च अहं विस्मरति
विस्मृतवती
विस्मृतवती
अत्र उदात्तेत् धातुः अस्ति अत्र चिह्नानि न सन्ति शकारोत्तरवर्ती उकारः अनुनासिकः इति संज्ञकः अपि च तत्र चिह्नानि न सन्ति इति कारणतः उदात्तस्वरः अतः धातुः उदात्तेत् धातुः अपि च हलन्तधातुः उपधायां ह्रस्वैकारः अस्ति शपं निमित्तीकृत्य धातौ अङ्गकार्यं भवति अङ्गकार्यं किं गुणकार्यं शपं निमित्तीकृत्य जिष् इत्यत्र उपधायां ह्रस्वैकारः अस्ति इति कारणतः पुगन्तलघुपदस्य चैत्येन गुणकार्यं भूत्वा जेष् भवति जेष् योगः शप् इत्यस्मात् अकारः आगतः तिप् इत्यत्रापि पकारः हलन्त्यम् इत्यनेन अपगच्छति ति एव अवशिष्यते जेष् योगः आयोगः ति जेषाति इति रूपं भवति किन्तु अत्र मुख्यवार्ता का धातुः उदात्तेत् अतः परस्मैपदिसंज्ञकप्रत्ययाः विहिताः भवन्ति शेषात् कर्तरि परस्मैपदं सूत्रेण कर्तरिप्रयोगे एव परस्मैपदसंज्ञकप्रत्ययाः आयान्ति न तु कर्मणि प्रयोगे धातुः अकर्मकः चेत् भाव्यप्रयोगे वाक्यं सिध्यति सकर्मकः चेत् कर्मणि प्रयोगे प्रतिमा भगिनी भवती करोतु अग्रिमधातोः चिन्तनं
औपदेशिकधातुः वृत्त अस्ति अन्तिम स्वर अकारः अनुनासिकः अस्ति अनुदात्त च अस्ति तेन कारणेन इत्संज्ञा भूत्वा वृक् अवशिष्यते अनुदात्ते धातुः अस्ति तेन कारणेन आत्मनेपदी भवति वृक् योगशप योग ते प्रत्यायाति
तावत्पर्यन्तं साधु भवती किमुक्तवती धातुः अनुदात्तेत् धातुः अनुदात्तस्वरवर्णस्य इति संज्ञा भवति ककारोत्तरवर्ती अकारः चन्द्रबिन्दुना अङ्कितः चन्द्रबिन्दुना सह अस्ति इति कारणतः ककारोत्तरवर्ती अकारः अनुदात्तः अपि च इति संज्ञकः अतः धातुः अनुदात्तेत् धातुः अनुदात्तेत् चेत् अनुदात्तनिताआत्मनेपदं सूत्रेण आत्मनेपदी धातुः भवति तावत् पर्याप्तम् अत्र लौकिकधातुः कः
वृक्
इदानीं रूपं साधयतु
वृक् योग शप योगति शकारस्य पकारस्य लोप भूत्वा अ अवशिष्यते वृक् योग अ योगति गुणकार्येण वृक् वर्क भवति वर्कते धातु भवति ऐ डोंट नो ऐ एम नॉट श्योर अबाउट इट
रूपं तु साधु एव अत्र इतोपि किञ्चित् विवृणोतु अत्र वृक् इति कीदृशधातुः भुवादिगणे अस्ति हलन्तधातुः अपि च उपधायां लघु इक् वर्णः वकारोत्तरवर्तीरुकारः लघु वर्णः अतः उपधायां लघु इक् वर्णः अस्ति इति कारणतः वदतु
उपधायां लघु वर्णः अस्ति तेन कारणेन उपधाया दीर्घ सूत्रेण अहं न जानामि भगिनि
भवती जानाति एव चिन्ता मास्तु नरेश महोदय कृपया किञ्चित् विवृणोतु अत्र किं भवति लटी रूपं साधयितुम् इच्छामश्चेत्
लौकिकधातु वृक् अस्ति वृक् उपधायां इक् वर्णः अस्ति अतः वृक् योग अयोगति अत्र पुगन्तलघुपदस्य च तत्र गुणकार्यं भवति वृक् वर्क् भवति वर्क् योग अयोग ते एतत्तु आत्मनेपदी अस्ति वर्कते भवति
उत्तमं तदेव अत्र उपधायां लघु इक् वर्णः ऋकारः अस्ति अतः शपं निमित्तीकृत्य धातौ गुणकार्यं भवति ऋकारस्य गुणसंज्ञकवर्णः अकारः, किन्तु अत्र उरण् रपरः सूत्रेण सः अकारः नित्यं रपरः भवति. ऋकारस्य गुणसंज्ञकवर्णः यद्यपि अकारः, तथापि सः अकारः नित्यं रपरः भवति इति कृत्वा रु इत्यस्य स्थाने अर् आयाति. तदर्थमेव वकारः योगः अर् योगः ककारः. वर्क् इति रूपं सिध्यति तत्र. वृक् इत्यस्मात् वर्क् इति रूपम् आयाति. वर्क् योगः अयोगः ते, वर्काते इति रूपम्. अपि च धातुः अनुदात्तेत् धातुः, अतः आत्मनेपदी. उत्तमम्. अट धातोः प्रसङ्गे वीणा भगिनी वदतु.
अट अस्ति अत्र टकारोत्तरपरि अकार चन्द्रबिन्दु अनुनासिक अकारः अस्ति. उपदेशे जनुनासिक इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः भवति, अट इति अवशिष्यते. तत् अट इति अनुदात्तः अपि नास्ति, स्वरितः अपि नास्ति, उदात्तः अपि स्वरितः अपि नास्ति, अनुदात्तः अपि नास्ति, अतः उदात्तः भवति. शेषात् कर्तरि परस्मैपदी इति सूत्रेण तस्य परस्मैपदी धातुः भवति, भ्वादिगणे अस्ति. अतः अट योगे अ प्रतिनिधि, शप् इति प्रतिनिधिः अस्ति, अस्य प्रतिनिधिः अ अस्ति. अट टकारः भवति. तस्य अनन्तरे लट् लकारस्य परस्मैपदी इत्युक्ते ति, तिङ् प्रत्ययः ति आगच्छति, अटति इति लट् लकारस्य रूपं निष्पद्यते.
उत्तमम्. अत्र किमर्थं गुणकार्यं नास्ति?
अत्र इक्वर्णः नास्ति भगिनि. अट् अ इकारः पुगन्तं लघुपदस्य अपि सूत्रस्य प्रसक्तिः नास्ति. अत्र इक्वर्णः नास्ति, अतः गुणकार्यं न भवति. इगन्तम् अङ्गम् अपि नास्ति.
उत्तमम्. इगन्तधातुः अपि नास्ति, लघुपदधातुः अपि नास्ति, उपधायाम् अकारः अस्ति, इकवर्णः नास्ति. अतः अत्र अङ्गकार्यं नास्ति, सन्धिकार्यं नास्ति. लौकिकधातुः अट् अस्ति. अट् योगः अयोगः ति केवलं वर्णमेलनेन अटति इति रूपं सिद्ध्यति. किन्तु धातुः परस्मैपदी धातुः. किमर्थम् अत्र कारणं किम्?
उदात्तः अस्ति, अतः उदात्तः अस्ति. स्वरितः नास्ति, अनुदात्तः अपि नास्ति, अतः उदात्तः अस्ति. उदात्तः अस्ति चेत् शेषात् कर्तरि परस्मैपदे इति सूत्रेण परस्मैपदी भवति. कर्तृर्थे अस्ति चेत् परस्मैपदी, कर्तृर्थे अस्ति खलु अटति.
उत्तमं. भवती जानाति एव अत्र अनुदात्तः इति स्वरः, स्वरितः इति स्वरस्य प्रसङ्गे विवरणम्. अत्र उदात्तस्वरवर्णस्य इत् संज्ञा भवति इति कारणतः धातुः उदात्तेत् धातुः खलु. अत्र स्वरवर्णः उदात्तः, किन्तु धातुः उदात्तेत् धातुः. उदात्तस्वरवर्णस्य इत् संज्ञा भवति अस्मिन् धातौ, अतः उदात्तेत्. उदात्तेत् अस्ति इति कारणतः शेषात् कर्तरि परस्मैपदं सूत्रेण परस्मैपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति कर्तरि प्रयोगे एव. साधु अग्रे करोतु.
मृदु इति धातुः अस्ति. तत्र अध रेखा अस्ति वा भगिनी? न दृश्यते.
अस्ति
मृदु. अत्र अनुदात्तः अस्ति धातु, हलन्तधातुः, हलन्तवर्णः अस्ति. अपि अन्ते धकारस्य मृदु परे उकारः, अनुनासिक उकारः अस्ति, तस्य इत्संज्ञा भवति, तस्य लोपः भवति, मृध इति अवशिष्यते. अनुदात्तः अस्ति धातुः, अतः अनुदात्त नित् धातुः आत्मनेपदी इति सूत्रस्य अत्र प्रसक्तिः भवति. अत्र वृध वृ पुगन्तलघुपदस्य अपि सूत्रस्य प्रसक्तिः भवति. इक्वर्णः अस्ति, ऋकारः इक्वर्णः अस्ति.
अत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति वा? कार्यमपि अस्ति वा?
हा, कार्यमपि अस्ति, कार्यमपि अस्ति.
वदतु.
हा, वर्ध इति तस्य गुणः भवति. वर्धते, वर्ध इति भवति, वर्ध इति भवति. तदनन्तरम् आत्मनेपदी अस्ति धातुः, अनुदात्तः अस्ति, अतः आत्मनेपदी प्रत्ययः आगच्छति. वर्धते इति लट्लकारस्य रूपं निष्पद्यते.
साधु भगिनी धकारोत्तरवर्ती अकारः कीदृशः इति द्रष्टव्यम्। वकारोत्तरवर्ती ऋकारः कीदृशः, अत्र स्वरवर्णद्वयमस्ति, वकारोत्तरवर्ती ऋकारः अस्ति, धकारोत्तरवर्ती अकारः अस्ति। धकारोत्तरवर्ती अकारः अनुदात्तः, तस्य अकारस्य इत् संज्ञा भवति। धातुः अनुदात्तेत् धातुः, अतः आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति धातोः परम्। अपि च धातुः हलन्तधातुः, उपधायां लघु ऋकारः अस्ति, लघु इकवर्णः अस्ति। अपि च शप् प्रत्ययः धातोः परम् अस्ति इति कृत्वा शपं निमित्तीकृत्य धातौ अङ्गकार्यं भवति, गुणकार्यं भवति। ऋकारस्य स्थाने गुणसंज्ञकवर्णः अकारः अपि च उरण्परः इत्यनेन सः अकारः रपरः भवति। वृद्ध इत्यस्य रूपं गुणकार्यं भूत्वा वर्ध भवति। वर्ध योगः आयोगः ते, वर्धाते। भवन्तः सर्वे जानन्ति खलु, सस्यं वर्धते, शिशुः क्रमशः वर्धते इति वयं जानीमः एव। अयं धातुः अकर्मकधातुः, कर्मपदं न कदापि स्वीकरोति।
औपदेशकधातु वृधुम् अस्ति अथवा वृधम् अस्ति, उकारः धकारोवर्ति उकारः अस्ति, धकारोत्तरवर्ति उकारः अस्ति अथवा अकारः अस्ति?
उकारः एव महोदय, क्षम्यताम्। अत्र
आम् अहं चिन्तयामि उकारः अस्ति,
धकारोत्तरवर्ति उकारः एव, क्षम्यताम्। उकारः न केवलम् अनुनासिकः, इत्संज्ञकः, अनुदात्तः अपि। अधोभागे रेखया द्रष्टुं शक्नुमः, अतः धातुः अनुदात्तेत् धातुः, अतः आत्मनेपदी। तदर्थमेव रूपं वर्धते। उत्तमम्। एतावत्पर्यन्तं वयं किञ्चित् अवगतवन्तः। इदानीम् अवशिष्टस्वरस्य आधारेण इड् व्यवस्थां ज्ञातुं शक्नुमः इति अस्माभिः पठितं, तत् किम् इति इदानीं पश्येम। इड् व्यवस्था, व्यवस्था इत्युक्ते शास्त्रनिरूपितविधिः। वि उपसर्गपूर्वकः, अव उपसर्गपूर्वकः, स्थाधातोः रूपं, तस्मात् परं प्रत्ययः अस्ति। स्थाधातोः रूपं तिष्ठति, णिजन्तरूपं स्थापयति। स्थाधातुः आकारान्तधातुः। इड् व्यवस्थायाः प्रसङ्गे अस्माभिः ज्ञातव्यम्। रोहिणी भगिनी, भवती पठतु।
द्वितीयबिन्दुः इड् व्यवस्था, इट् नाम किम्? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न। यदा तिङन्तेषु गमिष्यति इत्यत्र महावारोत्तर इकारः अस्ति, गच्छति इत्यत्र एवं कोऽपि इकारः नास्ति। कृदन्तेषु पठितुम् इत्यत्र ढकारोत्तर इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति। अस्य इकारस्य नाम इड् आगमः, इडागमः। तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड् व्यवस्था। यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेट् इत्युच्यते। सेट् इडा सः बहुव्रीहिसमासः। एतादृशबहुव्रीहिसमासस्य यस्य सः, येन सः इति शैली न भवति, किन्तु अन्यपदार्थप्राधान्यम् अस्ति। प्रधानं न सः न वा इट् अपि तु धातुः। यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनिट् इत्युच्यते। अनिट् न इट्, इट् साहित्यं यस्य सः, इट् साहित्यं यस्य सः। सामान्यतया धातुः सेट् अस्ति चेदपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडानुकूलता विद्यते, नाम तस्य दशायाम् इडागमः भवितुम् अर्हति। धातुप्रत्ययोः कश्चन इडानुकूलो नास्ति चेत् सामान्यतया तत्र इडानुकूलता नास्ति। अपवादाः सन्ति किन्तु सामान्यनियमः अयम्। इड् व्यवस्था किम् इति उच्यते। कुत्रचित् धातोः परं प्रत्ययः अस्ति योजिता भवन्ति, तत्र कुत्रचित् इ इकारः दृश्यते, कुत्रचित् न. यत्र इकारः दृश्यते तत्र इडागमः भवति. इडागमः भवितुम् अर्हति यदा धातुः सेट् भवति, प्रत्ययः अपि इदनुकूलः विद्यते चेत्. धातुप्रत्ययः कश्चन इदनुकूलता नास्ति चेत् तत्र सामान्यः सामान्यतया इड न भवति. एतादृशी सामान्यनियमः.
साधु भगिनी, तदेव. अत्र पश्यन्तु, अवलोकितम् इति पदमस्ति. अवलोकितम् इत्यत्र इडागमः दृश्यते. प्रथमं वाक्यं पश्यन्तु, तिङन्तेषु कृदन्तेषु कुत्रचित् इकारः श्रूयते, कुत्रचित् न. तदवगन्तुमेव अग्रिमे वाक्ये उदाहरणानि दत्तानि. उदाहरणानि वदामि. पठिष्यति, खादिष्यति, गमिष्यति, भविष्यति, मेलिष्यति, लेखिष्यति इत्यादिषु तिङन्तपदेषु इकारः दृश्यते, कुत्रचित् इकारः न दृश्यते. यथा द्रक्ष्यति, रंस्यते, मंस्यते, पास्यति, ज्ञास्यति, दास्यति. इमानि पदानि लृट्लकाररूपाणि. द्रक्ष्यति अपि लृट्लकाररूपमेव, गमिष्यति अपि लृट्लकारः एव. किन्तु गमिष्यति इत्यत्र इडागमः अस्ति, मध्ये इकारः श्रूयते. किन्तु द्रक्ष्यति इत्यत्र इकारः नास्ति. द्रक्ष्यति इति रूपसाधनवेलायां कानि कानि कार्याणि भवन्ति इति अहं पठितवती, तदर्थं वक्तुमिच्छामि. भवन्तः सर्वे जानन्ति खलु, दृशिर् इति धातुः अस्ति खलु. दृशिर् इत्यत्र इरः इत्संज्ञावाच्या इति सूत्रेण इर् इत्यस्य इत्संज्ञा भूत्वा दृश् लौकिकधातुः दृश् अस्ति. तस्मात् परं स्या इति लकारनिमित्तिकविकरणप्रत्ययः लृट्लकारप्रसङ्गे स्यतासि लृलुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति, धातु तिङ्प्रत्ययोः मध्ये आयाति. गणनिमित्तिकविकरणप्रत्ययः भिन्नः, लकारनिमित्तिकविकरणप्रत्ययः भिन्नः. आर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः स्या इति प्रत्ययः आयाति. किन्तु तत्र एकं विशिष्टं सूत्रम् आवश्यकं. सृजि दृशोर्झल्यमकिति इति सूत्रेण अम् इति आगमः भवति. तत्र रूपं किं भवति? दृ योगः अम् योगः तालविषकारः. इत्युक्ते शकारात् पूर्वम् अम् आगमः भवति. अम् आगमः मित् अस्ति. मित् अस्ति इति कारणतः अन्तिम अचुवर्णस्य अनन्तरम् आयाति. दृ योगः अम् योगः शकारः. अम् इत्यत्र मकारः इति संज्ञकः, अतः द्रुयोगः आयोगः शकारः. द्रु इत्यत्र ऋकारः अस्ति खलु. ऋकार अकारयोः मध्ये सन्धिकार्यं भवति, यण्वर्णादेशः भवति. ऋकारस्य स्थाने यण्वर्णादेशः. इको यणचि इत्येकं सन्धिसूत्रम् अस्ति, तेन सूत्रेण यण्सन्धिः भवति. इत्युक्ते ऋकारस्य स्थाने रेफः आयाति. इवुरुलु स्थाने यावरल आदेशाः भवन्ति खलु, यण्सन्धिः भवति चेत् तदा तत्र ऋकारस्य स्थाने रेफः आयाति. तेन द्रश् इति रूपं सिद्ध्यति. पश्चात् व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः इत्येकं सूत्रमस्ति. छशाम् इति कथनेन तालव्यशकारान्त धातुषु इति अर्थः. अत्र द्रश् तालव्यशकारान्तरूपम् अस्ति इति कारणतः तत्र स्थितस्य तालव्यशकारस्य स्थाने मूर्धनिशकारः आयाति. तेन द्रश् इति रूपं सिद्ध्यति. द्रश् योगः स्यति इति रूपम् अस्ति. अपि च तत्र एकम् अन्यत् कार्यमस्ति. षडोः कहसि इति एकं सूत्रमस्ति. तेन सूत्रेण शकारस्य स्थाने ककारादेशः भवति. तेन द्रश् इत्यस्य रूपं द्रक् भवति. द्रक् योगः स्यति इति अस्ति. ककारः इन्कोः वर्णः. तत्र आदेशप्रत्ययोः इति एकं सूत्रमस्ति. सकारादिप्रत्ययः परमस्ति. स्यति इति प्रत्ययस्य आदौ सकारः अस्ति, तस्मात् पूर्वं ककारः अस्ति इति कारणतः तत्र आदेशप्रत्ययोः इति सूत्रेण तत्र स्थितस्य दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आयाति इति कृत्वा द्रक् श्यति सकारस्य स्थाने मूर्धन्यशकारः आयाति. द्रक् योगः श्यति इति रूपं सिद्ध्यति वर्णमेलनेन. द्राक्ष्याति ककारशकारयोः मेलनेन क्ष इति रूपं सिद्ध्यति. किन्तु मुख्यवार्ता का? द्रक्ष्यति इत्यत्र इडागमः न दृश्यते. द्रक्ष्यति इति तिङन्तपदम्. एवं रीत्या केषुचित् तिङन्तपदेषु इकारः दृश्यते, केषुचित् पदेषु इकारः न दृश्यते. किमर्थम् इति प्रश्नः उदेति. न केवलं तिङन्तपदेषु, कृदन्तपदेषु अपि एतादृशं कार्यमेव भवति. उदाहरणार्थं पठितं, खादितं, चर्चितम्, अवलोकितम् इत्यादिषु पदेषु इकारः दृश्यते. भवन्तः सर्वे जानन्ति खलु धातुतः विहिताः प्रत्ययाः द्विधा भवन्ति, तिङ्प्रत्ययाः कृत् प्रत्ययाः. धातुतः तिङ्प्रत्ययस्य योजनेन तिङन्तं पदं, कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. क्तान्तरूपाणि कृदन्तपदानि. कृत् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति, तस्मात् परं सुप्रत्ययं योजयामः, तेन कृदन्तपदनिर्माणं भवति. पठितुम् इत्यत्र ठकारोत्तरवर्ति ईकारः अस्ति, किन्तु दृष्टं, ज्ञातम् इत्यादिषु पदेषु इकारः न दृश्यते. कर्तुम् इति पदमपि कृदन्तपदमेव. वीणा भगिनी, भवती वक्तुमिच्छति वा कर्तुम् इति पदस्य रूपसिद्धिः कथं भवति?
क्रू धातुः अस्ति, क्रू इति अस्ति, तस्य ङ इति अस्य हलन्त्यम् इति सूत्रेण तस्य लोपः भवति, क्रू इति अवशिष्यते. प्रत्ययः किम् अस्ति भगिनि?
तुमुन्.
तुमुन् 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 प्रत्ययः अस्ति. अत्र नकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः भवति, तुम् इति अवशिष्यते. क्रू इति धातुः, क्रू योगे तुम्, क्रू अत्र क्रू ऋकार इक्वर्णस्य इक्वर्णः अस्ति, तस्य गुणकार्यः भवति कृ कर् इति भवति. कर् योगः तुम्, कर्तुम् इति अन्तिमरूपं निष्पद्यते, कर्तुम् इति भवति. तुदादिगणे अस्ति अत्र.
न इतोपि एकः विषयः अस्ति, गणचिन्तनम् अनावश्यकम्. गणचिन्तनं किमर्थम् अनावश्यकम् इत्युक्ते अत्र तुमुन् इति प्रत्ययः अस्ति. तुमुन् प्रत्ययः कीदृशप्रत्ययः?
आर्धधातुकप्रत्ययः अस्ति, अतः गुणकार्यं भवति.
धातोः परं कीदृशप्रत्ययः अस्ति इति द्रष्टव्यम्. अत्र तुमुन् प्रत्ययः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकः. तिङ् नास्ति, षित् नास्ति, तिङ्षित् भिन्नः, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकप्रत्ययः. धातोः परम् आर्धधातुकसंज्ञकप्रत्ययः अस्ति चेत् तदा इडागमचिन्तनम् अवश्यं करणीयम्. किन्तु इडागमस्य प्रसङ्गे बहवः नियमाः सन्ति. कीदृशधातुः, धातोः परं कीदृशप्रत्ययः अस्ति, एतत् सर्वं चिन्तनीयं. तदर्थं नियमाः सन्ति, सूत्राणि सन्ति. तुमुन् इत्यत्र नकारः हलन्त्यम् इत्यनेन अपगच्छति, तुम् एव अवशिष्यते. इत्युक्ते निरनुबन्धप्रत्ययः तुम् एव. धातुः डुक्नुञ् अस्ति, अनुबन्धवर्णानां निष्कासनानन्तरं लौकिकधातुः क्रु अस्ति, लौकिकधातुः क्रु. तस्मात् परम् आर्धधातुकसंज्ञकप्रत्ययः अस्ति, आर्धधातुकसंज्ञकप्रत्ययः तुमुन् अस्ति. अपि च धातुः इगन्तधातुः, इत्युक्ते धातोः अन्ते ऋकारः अस्ति, इक् प्रत्याहारस्थवर्णः. अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण धातौ गुणकार्यं भूत्वा कर् भवति. कर् योगः तुम् वर्णमेलनेन कर्तुम् इति भवति. तत्र इकारः न श्रूयते, क्रू धातुतः कर् भवति, कर् योगः तुम् कर्तुम्. किन्तु पठितुम् इत्यत्र इडागमः श्रूयते. किमर्थं तादृशभेदः, तावान् भेदः किमर्थम् अस्ति इति एव अस्माकं विषयः. मध्ये यः इकारः श्रूयते तस्य इकारस्य नाम एव इडागमः. कुत्र इडागमः भवति, कुत्र न भवति इत्यस्य विज्ञानमेव इड् व्यवस्था. धातौ अपि आनुकूल्यं भवेत्, प्रत्यये अपि आनुकूल्यम् आवश्यकम् इति तत्र मुख्यविषयः. किन्तु अयं तु सामान्यनियमः. पठितुम् इत्यत्र पठ् धातौ इडागमस्य कृते आनुकूल्यम् अस्ति, तुमन् प्रत्यये अपि इडागमस्य कृते आनुकूल्यं वर्तते. इत्युक्ते तत्र प्रत्ययस्य आदौ तकारः अस्ति, सः तकारः वल्प्रत्याहारस्थवर्णः. अधोभागे तदेव सूत्रं दत्तमस्ति, आर्धधातुकस्येड् वलादेः प्रत्ययस्य इडागमयोग्यत्वं ज्ञातुं सूत्रं दत्तमस्ति. इत्युक्ते आर्धधातुकप्रत्ययस्य आदौ वल्प्रत्याहारस्थवर्णः अस्ति चेत् तदा सः प्रत्ययः इडागमयोग्यः. पट् धातौ अपि आनुकूल्यमस्ति इडागमः भवितुं. तदर्थमेव पठितुं कर्तुम् इत्यत्र प्रत्यये इडागमयोग्यत्वम् अस्ति, किन्तु धातौ इडागमयोग्यत्वं नास्ति. क्रूधातुः अजन्तधातुः, बहवः अजन्तधातवः अनिटः भवन्ति इति साधारणपरिशीलनम्. अत्र क्रूधातुः अपि अनिट् धातुः, तदर्थमेव तत्र इडागमयोग्यत्वं नास्ति, अतः कर्तुम् इति रूपम् अस्ति. अस्मिन् परिच्छेदे अन्तिमं वाक्यं पश्यन्तु, अपवादाः सन्ति, अयं तु सामान्यनियमः. धातुः सेट् अस्ति चेत् इडागमयोग्यत्वं वर्तते, प्रत्ययः अपि सेट् इत्युक्ते द्वयोः इडागमयोग्यत्वम् अस्ति चेदेव तत्र इडागमः भवितुं शक्नोति. अयं तु सामान्यनियमः, अपवादाः सन्ति. पश्यन्तु गमिष्यति इति रूपमस्ति खलु, गम् धातुः अपि अनिट् धातुः एव, तत्र विशिष्टसूत्रेण इडागमः भवति. गमेरिट् परस्मैपदेषु इति सूत्रेण, विशिष्टसूत्रेण इडागमः भवति. पश्यन्तु गम् धातोः रूपं गन्तुं, गत्वा, गतवान् इति रूपाणि सन्ति. गमिष्यति इत्यत्र इडागमः श्रूयते. यद्यपि गम् धातुः अनिट् धातुः, तथापि विशेषसूत्रेण तत्र इडागमः भवति, अयम् अपवादः. एवमेव क्रूधातोः प्रसङ्गे अपि क्रूधातुतः कर्तुम् इति रूपं सिद्ध्यति. भवन्तः सर्वे जानन्ति खलु, लट् लोट् लङ् विधिलिङ् एते चत्वारः सार्वधातुकाः, अन्यलकाराः आर्धधातुकाः, लृट्लकारः आर्धधातुकलकारः. क्रूधातुतः निर्मितं लृट्लकाररूपं करिष्यति, तत्रापि इडागमः श्रूयते. धातुः अनिटेव, किन्तु विशिष्टसूत्रेण करिष्यति इत्यत्र इडागमः भवति. तत्र रुद्धनोः स्ये इति सूत्रमस्ति, ऋकारान्तधातुषु स्या प्रत्यये परे धातुः सेट् भवति, तस्मिन् सन्दर्भे एव सेट् भवति. वस्तुतः धातुः अनिट् धातुः, क्रूधातुः अपि अनिट् एव, गम् धातुः अपि अनिट् एव, विशिष्टसूत्रेण तत्र इडागमः भवति. तदर्थमेव अस्य परिच्छेदस्य अन्ते अपवादाः सन्ति, अयं तु सामान्यनियमः इति उक्तमस्ति. किन्तु इडागमस्य प्रसङ्गे इतोपि किं ज्ञातव्यं? नरेश् महोदय, भवान् वदतु अत्र किं लिखितम्?
सेट् इटासः, तत्तु बहुव्रीहिसमासः अस्ति. अत्र द्वे स अस्ति अपि च इट् अस्ति, परन्तु स न प्राधान्यम्, इट् अपि न प्राधान्यम्. प्रधान तु धातुः अस्ति, अतः बहुव्रीहिः समासः अस्ति.
पीताम्बरः इति पदमस्ति चेत् तस्मिन् पदे बहुव्रीहिसमासः अस्ति इति वयं जानीमः. पीतम् अम्बरं यस्य सः, यस्य सः, येन सः, यस्मात् सः, यं सः, एवं रीत्या षट् प्रकारक बहुव्रीहिसमासाः सन्ति. बहुव्रीहिसमासे बहवः प्रभेदाः सन्ति. समानाधिकरणबहुव्रीहिसमासः, व्यधिकरणबहुव्रीहिसमासः, एवं बहवः प्रभेदाः सन्ति. किन्तु समानाधिकरणबहुव्रीहिसमासे पुनः षट् प्रभेदाः सन्ति. पीताम्बरः, पीतम् अम्बरं यस्य सः, तत्र समानाधिकरणबहुव्रीहिसमासः अस्ति. सेट् इति पदमपि समस्तपदमेव, अत्रापि बहुव्रीहिसमासः एव अस्ति. किन्तु विग्रहवाक्यं किम्? इटासः वर्तते, सः पूर्वपद बहुव्रीहिसमासः, बहुव्रीहिसमासस्य एकः प्रभेदः. सः पूर्वपद बहुव्रीहिसमासः, तत्र तेन सहेति तुल्ययोगे इति सूत्रेण सः पूर्वपद बहुव्रीहिसमासः भवति, सेट् इत्यस्मिन् अस्ति. ईदृशानि पदानि भवन्तः सर्वे श्रुतवन्तः एव. सकर्मकः इति पदं वयं जानीमः, तस्मिन् पदे अपि सः पूर्वपद बहुव्रीहिसमासः अस्ति. कर्मणा सः वर्तते, सकुटुम्बः इति पदमस्ति, कुटुम्बेन सह वर्तते. एवमेव सकर्मकरः, सपक्षकः, सलोमकः, सलक्ष्मणः. सलक्ष्मणः इत्युक्ते रामः, सेट् इति अस्ति खलु, इटा सह वर्तते इति अर्थः. सलक्ष्मणः इति कथनेन लक्ष्मणेन सह वर्तते इति अर्थः. इमानि पदानि सहपूर्वपदबहुव्रीहिसमासस्य कृते उदाहरणानि. सपुत्रः इति पदमपि तादृशं पदमेव, किन्तु तत्र विकल्पेन सः शब्दस्य स्थाने स आदेशः भवति इति कृत्वा सपुत्रः इत्यपि साधु, सहपुत्रः इत्यपि साधु. एवमेव सकुटुम्बः, सहकुटुम्बः. किन्तु अत्र नित्यरूपेण सः स्थाने स आदेशः भवति. सेट् इति कथनेन अयं धातुः इटा सह वर्तते इति अर्थः. सेट् इति पदं धातोः विशेषणं. धातुः कीदृशः? सेट् धातुः. बहुव्रीहिसमासे अन्यपदप्राधान्यं वर्तते. अन्यपदार्थप्रधानः बहुव्रीहिः. सेट् इति कथनेन तत्र पदद्वयमस्ति, सा इति एकं पदम्, इट् इति अन्यत् पदम्. अत्र सा इति पदस्य प्रधानता नास्ति, इट् इति पदस्य प्रधानत्वं नास्ति. अत्र धातोः प्राधान्यमस्ति. सेट् इति धातोः विशेषणम्, अन्यपदार्थप्राधान्यमस्ति इति कारणतः अस्मिन् पदे बहुव्रीहिसमासः अस्ति. किन्तु भिन्नप्रकारकबहुव्रीहिसमासः अस्मिन् पदे अस्ति, सामान्यप्रकारकः नास्ति. सः पूर्वपदबहुव्रीहिसमासः इति. इतोपि किं लिखितम् अस्ति? यस्मिन् धातौ इडागमस्य कृते अनुकूलता वर्तते सः धातुः सेट्, यस्मिन् धातौ इडागमस्य कृते आनुकूल्यं नास्ति सः धातुः अनिट् धातुः. एवमेव प्रत्ययानां प्रसङ्गे अपि चिन्तनं करणीयम्. प्रत्यये इडनुकूलता वर्तते चेत् सः प्रत्ययः सेट् प्रत्ययः, नो चेत् अनिट् प्रत्ययः. अनिट् इति कथनेन न इट् नै समासः अस्ति. इट् राहित्यं, रहितस्य भावः राहित्यं, सहितस्य भावः साहित्यम्. एवमेव रहितस्य भावः राहित्यम्. इट् राहित्यम् इत्युक्ते इट् वर्जनं. न इट् यस्य सः अनिट्. नरेश् महोदय, भवान् एव वदतु, अस्य परिच्छेदस्य सारांशः कः?
अत्र तु दत्तमस्ति किञ्चित् धातुः, वयम् इकारस्य प्रयोगं करोमि, कुत्रापि न करोति. यदा गमिष्यति इडागमः अस्ति, द्रक्ष्यति इडागमः नास्ति. अत्र इडागमः कुत्र अस्ति, कुत्र नास्ति, तत् दत्तम्. इडागमः हेतु धातुः इडागमयोग्य आवश्यकता अस्ति, अपि च प्रत्यय अपि इडागमयोग्य आवश्यकता अस्ति. यः धातुः इडागमयोग्य अस्ति तत् सेट् अस्ति, यः धातुः इडागमयोग्य नास्ति तत् अनेट् अस्ति. अत्र सेट् दत्तमस्ति बहुव्रीहिसमासः स योग इट्, परन्तु सा प्राधान्यं नास्ति, इट् प्राधान्यं नास्ति, धातुः प्राधान्यम् अस्ति. ततः धातुः सेट् अस्ति. कुत्रचित् धातुः सेट् नास्ति, तत् अनिट् अस्ति, तत्र इडागमः न भवति. इडागमः योग्य धातुः अपि च प्रत्यय इडागमः अनुकूलः अस्ति चेत् तत् भवति.
अस्माकम् अवगमनार्थं कानिचन पदानि अहं वदामि. पठिष्यति, खादिष्यति, गमिष्यति, एतादृशेषु पदेषु इडागमः इत्युक्ते तिङन्तपदेषु. अत्र पश्यन्तु, तिङन्तेषु, कृदन्तेषु च इति उक्तमस्ति. ईदृशं चिन्तनम् आर्धधातुकप्रक्रियायाम् अवश्यं करणीयम्. लृट् लकारप्रसङ्गे, लुट् लकारप्रसङ्गे तिङन्तरूपसाधनवेलायाम् इडागमचिन्तनम् अवश्यं करणीयम्. एवमेव आर्धधातुककृदन्तरूपेषु अपि. तिंशित् सार्वधातुकम् इत्यनेन षित् प्रत्ययाः सर्वे सार्वधातुकाः भवन्ति. अषित् प्रत्ययाः सन्ति चेत् आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः भवन्ति. आर्धधातुककृदन्तरूपसाधनवेलायाम् अपि इडागमचिन्तनम् अवश्यं करणीयम्. तिङ्गन्तरूपेषु पठिष्यति खादिष्यति इत्यत्र इडागमः अस्ति, किन्तु ज्ञास्यति, दास्यति, पास्यति, आप्स्यति, प्राप्स्यति, अवाप्स्यति तत्र इडागमः नास्ति इति वयं द्रष्टुं शक्नुमः. परिशीलनीयः अंशः अस्ति यत्र यत्र इडागमः भवति तत्र ष्यति इति रूपं सिद्ध्यति, गमिष्यति, खादिष्यति. स्या इति प्रत्ययः अस्ति, स्या प्रत्ययस्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति विशिष्टसूत्रेण आदेशप्रत्ययोः इति सूत्रेण तत्र स्थितस्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. यत्र यत्र इडागमः न भवति तत्र सः दन्त्यसकारः यथावत् तिष्ठति. तदर्थमेव ज्ञास्यति इडागमः नास्ति इति कृत्वा स्यति रूपं, दास्यति, पास्यति, आप्स्यति, अवाप्स्यति एवं रीत्या भवन्ति रूपाणि. अपि च कृदन्तरूपसाधनवेलायाम् अपि इडागमचिन्तनम् अवश्यं करणीयम्. सामान्यनियमः तु धातुः अपि च प्रत्ययः अपि सेट् अस्ति चेदेव तत्र इडागमः भवति, किन्तु अपवादाः सन्ति. सेट् धातुः अयं धातुः इति निर्णेतुं नियमाः सन्ति. एवमेव प्रत्ययः अपि सेट् प्रत्ययः वा न वा इति अपि ज्ञातव्यम्. इत्युक्ते धातोः चिन्तनं पृथक्तया करणीयं, प्रत्ययस्य चिन्तनमपि पृथक्तया करणीयं, तस्मात् परमेव रूपसाधनम्.
एकः प्रश्नः पुनः, सकारः कुत्र भवति, षकारः कुत्र भवति, पास्यति, गमिष्यति कथं भवति?
ज्ञास्यति, दास्यति, पास्यति इत्यत्र इडागमः न भवति. ज्ञास्यति इति ज्ञाधातोः लृट्लकाररूपं, ज्ञा इति धातुं स्वीकुर्मः, अस्माकं विवक्षा लृट्लकाररूपसाधनं, भविष्यत्कालरूपसाधनम् एव अस्माकं विवक्षा अस्ति. ज्ञा इति धातुः अस्ति, तस्मात् परं स्या इति प्रत्ययं योजयामः. स्या इति प्रत्ययः सकारादिप्रत्ययः. सकारादिप्रत्ययः इति कथनेन सकारः वल्प्रत्याहारस्थवर्णः, अतः आर्धधातुकस्येड्वलादेः इति सूत्रेण स्या प्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः लृट्लकारे स्यतासि लृ लुटोः इति सूत्रेण आयाति. स्या प्रत्ययः सकारादिः वलादिः, अतः इडागमयोग्यप्रत्ययः. अतः सर्वत्र इडागमः भवति वा इति चिन्तनीयं, किन्तु तत्र नियमाः सन्ति. ज्ञाधातुः सेट् नास्ति, अनिट् धातुः, धातौ इडागमयोग्यत्वं नास्ति, अतः इडागमः न भवति. केवलं वर्णमेलनमेव भूत्वा ज्ञायोगः स्यायोगः ति ज्ञास्यति इति रूपं सिद्ध्यति. किन्तु पठिष्यति इत्यत्र पठधातौ आनुकूल्यमस्ति इडागमस्य कृते, धातौ आनुकूल्यमस्ति, प्रत्यये अपि आनुकूल्यमस्ति, अतः इडागमः भवति. अत्र रूपं कथं साधनीयं? पठिष्यति इत्यत्र पठधातुः, तस्मात् परं स्या इति लृट्लकार लकारनिमित्तिकविकरणप्रत्ययः आयाति. इडागमः भवितुम् अत्र आनुकूल्यमस्ति, अतः पठ् योगः ई योगः स्यायोगः ति. इडागमः भवति खलु, तदर्थं तत्र आदेशप्रत्यययोः इति एकं सूत्रमस्ति. तस्मिन् सूत्रे इन्कोः इत्यस्य अनुवृत्तिः अस्ति. अत्र स्याप्रत्ययस्य सकारः प्रत्ययस्य अवयवरूपेण अस्ति. प्रत्ययस्य अवयवरूपेण यः सकारः अस्ति तस्य सकारात् पूर्वम् इण् प्रत्याहारस्थवर्णः अथवा कवर्गीयव्यञ्जनं वा अस्ति चेत् प्रत्ययस्य अवयवरूपेण यः सकारः अस्ति तादृशसकारात् पूर्वम् इण् प्रत्याहारस्थवर्णः. इण् प्रत्याहारः एकवारं माहेश्वराणि सूत्राणि पश्यन्तु. अत्र आयि उण् इत्यत्र यः णकारः अस्ति सः णकारः न स्वीकर्तव्यः. इण् इति कथनेन लण् पर्यन्तं स्वीकर्तव्यं, लण् सूत्रपर्यन्तं, षष्ठं सूत्रं पर्यन्तम् इण् प्रत्याहारे वर्णानां ग्रहणं भवति. सकारात् पूर्वम् इण् प्रत्याहारस्थवर्णः अस्ति. इण् प्रत्याहारस्थवर्णः कः? पठ् इति धातुः अस्ति, तस्मात् परम् इडागमः भवति. इट् इट् इति कथनेन तकारः इत् संज्ञकः, केवलम् इकारः एव अवशिष्यते. पठ्ययोगः इ, तस्मात् परं स्या अस्ति. इकारः इण् प्रत्याहारस्थवर्णः, अतः आदेशप्रत्ययोः इति सूत्रेण तत्र स्थितस्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. तदर्थमेव पाठ्ययोगः ईयोगः स्यति स्थाने ष्यति इति रूपम् आयाति, पठिष्यति. यत्र यत्र इडागमः दृश्यते तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. किन्तु इण् प्रत्याहारे अकार आकारद्वयम् अन्तर्भूतं नास्ति. यत्र यत्र इडागमः न भवति तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः न आयाति. तदर्थमेव पास्यति, दास्यति. दा धातुः अस्ति चेत् दास्यति, पा अस्ति चेत् पास्यति, ज्ञा अस्ति चेत् ज्ञास्यति. पा इति कथनेन पकारात् परम् आकारः अस्ति, तत्र इडागमः न दृश्यते, अतः तत्र दन्त्यसकारः यथावत् तिष्ठति. अस्माकं मुख्यविषयः सेट् प्रत्ययः. सेट् धातुः अस्ति चेत् इडागमः भवति इति साधारणनियमः, किन्तु अपवादाः सन्ति. अपवादान् अवगन्तुं गमिष्यति, करिष्यति, भरिष्यति, हनिष्यति. हन् धातुः अपि अनिट् धातुः एव. एतानि रूपाणि अपवादाः एव. इत्युक्ते अत्र अपवादत्वेन इडागमः भवति. गमिष्यति इत्यत्र धातुः अनिट् एव, किन्तु विशिष्टसूत्राणि कार्यं भवति. कुत्र इडागमः भवति, कदा इडागमः भवति इति अवगन्तुं नियमाः सन्ति. नियमान् एकवारं परिशीलयाम, अग्रिमपरिच्छेदं प्रति सरेम. इदानीं वीणा भगिनी भवती पठतु.
भगिनी, अहमेकं भवती यदा उक्तवती एकम् अंशं परिशीलितवती, कुत्र कुत्र हलन्तधातुः अस्ति तत्र सर्वत्र इडागमः भवति, सेट् भवति. सामान्यतया दास्यति, पास्यति, ज्ञास्यति, अत्र अन्ते आ अस्ति खलु, स्वरः अस्ति चेत् इडागमः न भवति. एकम् अंशम्
अत्र इतोपि किं वक्तुं शक्नुमः इत्युक्ते अधोभागे अस्ति एव, अनेकाचि धातवः सर्वदा सेटः भवन्ति. पश्यन्तु, प्रधानम् इति भिन्नं पदं, प्रधान इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन निर्मितं पदं प्राधान्यं. तस्मिन् स्थाने प्रधानता, प्रधानत्वम् इति अपि वक्तुं शक्नुमः. इत्युक्ते प्रधानत्वं, प्रधानता, प्राधान्यम् इमानि त्रीणि पदानि समानार्थकानि. वदतु भगिनि.
इत्संज्ञकेन अच् वर्णेन धातुः किं पदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते. अयं धातुः सेट्, अनिट् वा इति अस्माभिः उक्तम्. इत्संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयः क्रियते. अनेन स्वरेण इड् व्यवस्था ज्ञायते. भवती उक्तवती यथा एकाच उपदेशे अनुदात्तात् अस्ति चेत् तत् अनिट् भवति, अनेकाच् अस्ति चेत् तत् सेट् भवति इति अत्र दत्तम् अस्ति.
भगिनि, अस्मिन् परिच्छेदे किं लिखितम्?
तदेव वदामि. इत्संज्ञकेन अच् वर्णेन किं पदी इति निर्णयः क्रियते. इत्संज्ञक यदा अनुदातः अस्ति, स्वरितः अस्ति चेत् एव आत्मनेपदी भवति वा परस्मैपदी अथवा उभयपदी भवति, वयं निर्णयं कर्तुं शक्नुमः. अवशिष्टस्वरेण निर्णयः क्रियते. अयं धातुः सेट्, अनिट् वा इति अस्माभिः उक्तम्. एकाच् अस्ति धातुः, अवशिष्टस्वरेण स्वरः किम् अवशिष्यते तस्य अनुसारेण वयं सेट् अस्ति धातु वा अनिट् अस्ति इति वयं दृष्टवन्तः. इत्संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयः क्रियते. तदेव अवशिष्यस्वरं स्वरं दृष्ट्वा वयम् एतत् स्वरः सेट् अस्ति अथवा अनिट् अस्ति इति अपि निर्णयं कर्तुं शक्नुमः. अनेन स्वरेण इड् व्यवस्था ज्ञायते. स्वरः सेट् अस्ति चेत् इडागमः भवति, अनिट् अस्ति चेत् इडागमः न भवति इति इड् व्यवस्था अपि वयं ज्ञातुं शक्नुमः अवशिष्यस्वरं दृष्ट्वा.
उत्तमं, तदेव. इत्संज्ञकाचुवर्णेन किं पदी इति ज्ञायते, अवशिष्टस्वरेण इड् व्यवस्था ज्ञायते इति बहुवारं पठितम्। अग्रे करोतु।
तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यम्। वृत्तान्ते पठ इति धातुः, ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी। पकारोत्तरवर्ती यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते। पकारोत्तरवर्ती यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते। अयम् अकारः कीदृशी इति ध्येयम्। अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्, अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा धातुः सेट्। पकारोत्तरवर्ते अकारः उदात्तः अतः धातुः सेट्। गै धातुः ऐकारः अनुदात्तः अतः धातुः अनिट्। मे धातौ नकारस्य इत्संज्ञा मे अवशिष्यते, एकारः अनुदात्तः अतः धातुः अनिट्। क्षिम् इति धातौ उकारः अनुनासिकः अतः तस्य इत्संज्ञा लोपः च। क्षिव इति अवशिष्यते, क्षकारोत्तरवर्ती यः इकारः सः उदात्तः अतः धातुः सेट्। उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति। अवशिष्टस्वरः यदि अनुदात्तः रेखा अधः रेखा अस्ति चेत् तत् अनुदात्तः भवति, तत् अनिट् भवति। यदि अवशिष्टस्वरः स्वरितः अस्ति अथवा उदात्तः अस्ति चेत् तत् सेट् भवति, इडागमः भवति। तस्य तत्र सूत्रद्वयस्य अपि आवश्यकता अस्ति, तदपि वयं पश्यामः।
पठ् धातोः प्रसङ्गे उक्तमस्ति, पठ् धातौ स्वरवर्णाः के? पठ् धातोः वर्णनं करोतु।
प योगे अ योगे ठ योगे अ अनुनासिक अकारः अस्ति, अनुनासिक तत् उदात्तः अस्ति। किमर्थम् इत्युक्ते तत्र उपरि अपि रेखा नास्ति, अधः अपि रेखा नास्ति, अतः तत् अकारः उदात्तः अस्ति, उदात्ते अस्ति। पट धातुः पकारोत्तरवर्ती अकारः अस्ति, अवशिष्टः स्वरः अकारः अस्ति सः अवशिष्टः स्वरः। प योग अ योग ठ, अत्र प नन्तरम् अ, अवशिष्टस्वरः अ इति उच्यते।
उत्तमं। धातोः रूपं पश्यन्तु, पठाम् इति लिखितम् अस्ति, ठकारोत्तरवर्ति अकारः अस्ति, पकारोत्तरवर्ति अकारः अपि अस्ति, अत्र अकारद्वयं वर्तते। अत्र ठकारोत्तरवर्ति अकारः इति संज्ञकः अपि च उदात्तः, अतः उदात्त अकारस्य इति संज्ञा भवति इति कृत्वा धातुः उदात्तेत्, अतः परस्मैपदी, शशात् कर्तरि परस्मैपदम् इति सूत्रेण पठ् धातुः परस्मैपदी भवति। किमर्थं चेत् धातुः उदात्तेत् धातुः। अपि च अत्र पकारोत्तरवर्ती अकारस्य अधोभागे चिह्नानि न सन्ति, उपरि अपि चिह्नानि न सन्ति, अतः सः अकारः अपि उदात्तः एव, पकारोत्तरवर्ती अकारः एव अवशिष्टस्वरः। तस्य आधारेण धातुः सेट् वा अनिट् वा इति ज्ञातुं शक्नुमः। अत्र पकारोत्तरवर्ती अकारस्य अधोभागे रेखाखण्डः नास्ति इति कारणतः सः अकारः अनुदात्तः नास्ति इत्यतः सः वर्णः उदात्तः, इत्युक्ते अवशिष्टस्वरवर्णः उदात्तः। अत्र अनुबन्धवर्णानां निष्कासनानन्तरं तत्र धातोः लौकिकरूपं पठ् भवति खलु, पठ् इत्यत्र पकारोत्तरवर्ती अकारः अवशिष्टः अपि च उदात्तः, उदात्तः अस्ति इति कारणतः सेट् भवति, धातुः सेट्। अपि च तस्मात् परं सेट् प्रत्ययं योजयामः चेत् तदा इडागमः भवति, तदर्थमेव पठिष्यति स्या इति प्रत्यये सकारः वलादिवर्णः। भविष्यत्कालरूपं साधयितुमिच्छामश्चेत् तत्र स्या प्रत्यये अपि इडागमानुकूल्यमस्ति, अतः एव पठिष्यति इति रूपम्। अपि च पठितुं पठितुं तुमुन्नन्तं रूपम्, पठितं क्तान्तरूपं, पठितवान्
तवतु प्रत्ययः,
तवतु प्रत्ययः, एतेषु प्रत्ययेषु इडागमयोग्यत्वम् अस्ति, धातवः आनुकूल्यमस्ति, धातोः परं यः प्रत्ययः अस्ति सः प्रत्ययः अपि सिल्ट् तदर्थमेव इडागमः भवति. किन्तु पठनीयम् इति पदमस्ति, अनियर् प्रत्ययान्तरूपम् अस्ति. पठनीयं तत्र पश्यन्तु इडागमः नास्ति. किमर्थं चेत् धातव आनुकूल्यम् अस्ति किन्तु प्रत्यये आनुकूल्यं नास्ति. अनियर् प्रत्ययः अनिट् प्रत्ययः. अनियर् इति कथनेन तत्र रेफः अस्ति अन्ते, सः रेफः हलन्त्यम् इत्यनेन अपगच्छति. प्रत्ययस्य निरनुबन्धरूपम् अनीय अस्ति. अनीय आदौ अकारः अस्ति, सः अकारः वलादिवर्णः नास्ति. अधोभागे सूत्राणि सन्ति. आर्धधातुकप्रत्ययस्य आदौ वलादिवर्णः अस्ति चेत् सः प्रत्ययः इडागमयोग्यः, अपि च तस्य प्रत्ययस्य आदौ एव वशादिवर्णः मा भवेत् इति नियमद्वयमस्ति. इत्युक्ते न केवलं वलादिवर्णः भवेत्, वशादिवर्णः मा भवेत्. बोध्यम् इत्यत्र ण्यत् इति प्रत्ययः अस्ति. ण्यत् प्रत्यये अणकारः इति संज्ञकवर्णः चुटु इत्यनेन अपगच्छति, तकारः हलन्त्यम् इत्यनेन अपगच्छति. या एव अवशिष्यते तस्य प्रत्ययस्य आदिमवर्णः यकारः. यकारः वलादिवर्णः नास्ति इति कृत्वा ण्यत् प्रत्ययान्तरूपेषु अपि इडागमः न भवति. तव्यत् प्रत्ययं पश्यन्तु, तव्यत् इत्यत्र तकारस्य इति संज्ञा भूत्वा तव्य एव अवशिष्यते. तत्र तव्य इत्यत्र आदौ तकारः अस्ति, सः तकारः वल्प्रः वर्णः. तदर्थमेव पठ् धातुतः तव्यत् प्रत्ययस्य योजनेन इडागमः भूत्वा पठितव्य इति प्रातिपदिकं सिद्ध्यति. किन्तु तव्यत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, पठितव्यं, पठितव्या, पठितव्यः. तत्र धातौ अपि आनुकूल्यमस्ति, धातोः परं यः प्रत्ययः अस्ति तस्मिन् प्रत्यये अपि इडागमयोग्यत्वम् अस्ति इत्यतः तत्र इडागमः भवति. धातव आनुकूल्यमेव पर्याप्तं नास्ति. तस्मात् परं कीदृशप्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः इति अपि ज्ञातव्यं. तत्र नियमाः सन्ति, सूत्राणि अपि सन्ति. अस्मिन् परिच्छेदे केचन धातवः दत्ताः, तेषां चिन्तनं कृत्वा समापयामः. अत्र गैधातोः प्रसङ्गे वक्तव्यम्. रोहिणी भगिनी वदतु.
गैधातो ऐकारः अनुदातः, अतः धातुः अनिट्.
केवलं गैधातोः प्रसङ्गे वदतु, भवती किम् अवगतवती?
गैधातो अनुदात्तस्वरः अस्ति, अवशिष्टस्वरः अनुदातः अस्ति, तस्मात् इदानुकूलः धातुः नास्ति.
अनिट् धातुः. अस्मिन्नेव प्रसङ्गे अधोभागे सूत्रं दत्तमस्ति. गै इति धातौ एकः एव अच्वर्णः अस्ति. गै इति धातौ एकः एव अच्वर्णः इत्युक्ते ऐकारः एव अच्वर्णः. सः ऐकारः कीदृशः? अनुदात्त ऐकारः. अधोभागे रेखा अस्ति. ऐकारः यथावत् तिष्ठति, इति संज्ञकः नास्ति. ऐकारः न अपगच्छति, अपि च अनुबन्धवर्णाः न सन्ति. अत्र ऐकारः अनुदात्त ऐकारः. तदर्थमेव एका च उपदेशे अनुदात्तात् इति सूत्रेण अयं धातुः औपदेशिकधातुः, इत्युक्ते अस्माभिः निर्मितः धातुः नास्ति. उपदेशावस्थायाम् अस्य धातोः रूपं गै अस्ति. उपदेशावस्थायाम् अस्मिन् धातौ एकः एव अच्वर्णः अस्ति, सः अच्वर्णः अनुदात्तः. अतः एका च उपदेशे अनुदात्तात् इति सूत्रेण धातुः अनिट् भवति. तेन सूत्रेण धातोः अनिटत्वं सूच्यते. तदर्थमेव पश्यन्तु गैधातोः रूपाणि. गै धातुतः तुमन् योजनेन गातुं, गास्यति. गास्यति इति तिङन्तपदं, लृट्लकाररूपं गास्यति. तत्र इडागमः नास्ति. यद्यपि स्याप्रत्ययः इडानुकूलप्रत्ययः एव, किन्तु धातव आनुकूल्यं नास्ति. धातुः अनिट् धातुः, अतः गास्यति, गातुं, तुमन् रूपम्. किन्तु तत्र गातुम् इति रूपं कथम् आयाति इति अन्या वार्ता. किमर्थं चेत् धातुः एजन्तधातुः, ऐकारान्तधातुः. तदर्थम् आदेश उपदेशेशिति अशित् प्रत्यये परे एजन्तधातवः आकारान्ताः भवन्ति इति अन्यनियमः अस्ति. इति कारणतः गै धातोः तुमुन् रूपं गातुम्. अत्र इडागमः नास्ति, धातोः आनुकूल्यं नास्ति इति कारणतः. एवमेव गातव्यं, पठितव्यम् अस्ति खलु, किन्तु अत्र गातव्यम् इति भवति. गै धातुतः अनियर् योजनेन गानीयं, ल्युट् योजनेन गानं, गातुं, गास्यति, गातव्यं, गानीयम्. एतादृशेषु पदेषु इडागमः न दृश्यते. किमर्थं चेत् धातौ एव आनुकूल्यं नास्ति तत्र. पठ् धातोः प्रसङ्गे धातव आनुकूल्यम् अस्ति किन्तु तस्मात् परम् इडानुकूलप्रत्ययं योजयामश्चेत् इडागमः भवितुं शक्नोति. अग्रिमधातुः मेङ् धातुः अस्ति. अत्र किं भवति सत्यभामा भगिनी वदतु.
मेङ् धातौ ङकारस्य इत् संज्ञा हलन्त्यमिति सूत्रेण ङकारस्य इत् संज्ञा मे अवशिष्यते. एकारः अवशिष्य मे इत्यत्र एकारः अस्ति तद् अनुदातः अधः एकाचो आदेशे अनुदात्तात् इति सूत्रेण तस्य अनिडत्वं विधीयते. अतः इडागम इड अनुकूलधातुः नास्ति.
उत्तमं. मेङ् धातोः लटिरूपं साधयति वा
कस्मिन्
भुवादिगणे?
मे योगः आयोगः तीरि अनु उदात्तः अनुदात्तः स्वरः अस्ति.
धातोः रूपं दृष्ट्वा किम् अवगन्तुं शक्नुमः? मेङ् इत्यत्र ण्यकारस्य इति संज्ञा अस्ति इति कारणतः किं पदी
आत्मनेपदी.
अनुबन्धवर्णानां निष्कासनानन्तरं लौकिकधातुः कः?
मे एव.
मे कीदृशधातुः?
एजन्तधातुः. इदानीं मे योगः आयोगः ति इत्यत्र एकारस्य स्थाने अयादेशः भवति. अतः मे मय मा योगः ऐ योगः आयोगः ति मायति इति रूप मयति इति रूपं भवति.
मयते
मय अय एव एकारः अय आय् नास्ति ऐ मयते
ऐ आदेशः भवति. यचोयवायावः इति सूत्रेण सन्धिकार्यं भूत्वा अत्र इदन्तधातुः नास्ति इति कारणतः मयते इति रूपं सिद्ध्यति. किन्तु अस्माकं विषयः कः? अत्र अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः एकारः अनुदात्तः अनुदात्तः अस्ति इति कारणतः धातोः अनिटत्वं सूच्यते. अनेन धातुः अनिट् धातुः. तदर्थमेव अस्य धातोः लृट् लकाररूपं मास्यते. मास्यते इति कथं भवति इति अन्यावार्ता. आत्मनेपदी धातुः खलु, अतः मास्यते इति रूपं भवति. मास्यते इति रूपं पश्यामश्चेत् तत्र षत्वं नास्ति, इडागमः अपि नास्ति. किमर्थं चेत् धातुः अनिट्. धातोः अन्यानि रूपाणि वदामि. अत्र मातव्यं मातुम् ईदृशानि रूपाणि सिद्ध्यन्ति. अनिट् धातुः अस्ति इति कारणतः कृदन्तरूपेषु अपि इडागमः न दृश्यते. धातौ एव आनुकूल्यं नास्ति. अग्रिमधातुः क्षिवु अस्ति. तस्मिन् प्रसङ्गे भवती वक्तुमिच्छति वा सत्यभामा भगिनी?
शिवु शिवु इति धातौ उकारः अनुनासिकः. अत्र उपदेशे अच् अनुनासिक इति सूत्रेण अनुनासिक उकारस्य इत्संज्ञा भवति. तदनन्तरं शिव् इति अवशिष्यते. हलन्तधातुः अस्ति. इकारः इक्वर्णः अस्ति. शिव् चकार उत्तरवर्ति. यः इकारः सः उदात्तः. अतः धातु सेट्. इदानीम् एषः धातु सेट् अस्ति. इद् अनुकूलधातुः अस्ति. यतोहि तत्र धातुः उदात्तः अस्ति, अनुदात्तः नास्ति इति कारणात्.
उत्तमम्. अत्र अनुनासिक उकारः इति संज्ञकः. इतोपि अन्यानि चिह्नानि किमपि न सन्ति अत्र इति कारणतः धातुः उदात्तेत् धातुः. उदात्तेत् धातुः अस्ति इति कारणतः परस्मैपदी एव भवति. भुवादिगणे अस्ति चेत् अस्य रूपं किं भवति?
चिव् योगः आयोगः ति चिव्वति इति एव भवति. वगारः इकारस्य गुणः भवति. क्षेवति इति भवति. पुगन्तलघुपदस्य सूत्रं कार्यं करोति. अतः क्षेवति क्षेवति
क्षेवति इति रूपं भवितुं शक्नोति. अहं स्वराङ्कितधातुपाठं दृष्टवती. तत्र भिन्नचिन्तनम् अस्ति. एकवारं भवन्तः सर्वे पश्यन्तु. क्षिव् धातोः प्रसङ्गे क्षिवु इति दत्तमस्ति, अपि च क्षीवु इति अपि लिखितमस्ति. निरसने इत्यस्मिन् अर्थे अयं धातुः अस्ति. किन्तु स्मर्तव्यः अंशः कः? धातुः उदात्तेत् अतः परस्मैपदी धातुः. अवशिष्टस्वरः कः? ककारषकारयोः मेलनेन क्ष इति वर्णः निष्पद्यते. क्षकारात् परम् इकारः अस्ति. सः इकारः कीदृशः? अत्र चिह्नानि न सन्ति. अवशिष्टस्वरः अनुदात्तः नास्ति, अवशिष्टस्वरः उदात्तः. अतः धातुः सेट् भवति, इत्युक्ते इडागमयोग्यः धातुः अयम्. आहत्य अत्र वार्ता का? आर्धधातकतिङन्तरूपसाधनवेलायां कृदन्तरूपसाधनवेलायाम् इडागमचिन्तनम् अवश्यं करणीयम्. धातुः कीदृशः इति पृथक्तया परिशीलनीयम्. तस्मात् परं कीदृशप्रत्ययः अस्ति इति अपि चिन्तनीयमस्ति. कीदृशप्रत्ययः धातोः परमस्ति चेत् तस्मिन् प्रत्यये इडागमयोग्यत्वं सम्भवति इति अवगन्तुमेव आर्धधातुकस्येड्वलादेः इति सूत्रं पठनीयम्. अत्र अधोभागे दत्तमस्ति. तस्मिन् प्रसङ्गे आगामिनि सप्ताहे चर्चयिष्यामः. अद्य वयं सम्यक् चिन्तनं कृतवन्तः. सर्वेषां कृते धन्यवादाः.
भगिनि, क्षेव लट् लकारे क्षेवति अथवा क्षेविति?
भुवादिगणे अस्ति चेत् क्षेवति.
क्षेव्यति न अस्ति, इडागम न आयाति.
अत्र एका वार्ता, लट्लकारः कीदृशलकारः? सार्वधातुकलकारः. सार्वधातुकलकाररूपाणि साधयितुमिच्छामश्चेत् तत्र इडागमचिन्तनम् अनावश्यकम्. आर्धधातुकलकारेषु आर्धधातुकतिङन्तरूपसाधनवेलायां कृदन्तरूपसाधनवेलायाम् इडागमचिन्तनं करणीयं. लटीरूपं साधयितुमिच्छामश्चेत् तत्र इडागमचिन्तनम् अनावश्यकं. किन्तु गणविकरणप्रत्ययः कः, सः धातुः कस्मिन् गणे अस्ति, तस्मिन् गणे गणविकरणप्रत्ययः कः इति द्रष्टव्यम्. अहं स्वराङ्कितधातुपाठं दृष्टवती, तत्र अयं धातुः भुवादिगणीयः इति लिखितमस्ति. अस्य धातोः रूपं क्षीव् इति लिखितमस्ति. क्षीव् इति दीर्घ ईकारः अस्ति चेत् तत्र गुणकार्यं न भवति, भवन्तः सर्वे जानन्ति एव. उपधायां ह्रस्व इक् वर्णः अस्ति चेदेव गुणकार्यं भूत्वा क्षिव् इत्यस्य रूपं क्षेवति भवति. सार्वधातुकप्रक्रियायां गणविकरणप्रत्ययः कः इति चिन्तनम् अवश्यं करणीयम्. आर्धधातुकप्रक्रियायाम् इडागमचिन्तनं, सार्वधातुकप्रक्रियायां गणविकरणप्रत्ययः कः इत्यस्य चिन्तनं, तत्र गुणः भवति वा न भवति वा, कस्मिन् गणे अस्ति, एतादृशं चिन्तनं करणीयम्. क्षेव्यति इति रूपम् अयं धातुः दिवादिगणे भवेत् चेदेव रूपं भवति इति मम चिन्तनम्. साधु, सम्यक् चिन्तनं कृतवन्तः, धन्यवादाः.